एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। जाजरकोट जनपदस्य कुशे ग्रामपालिकायाः पैंक स्थान निकटस्थ स्थलं केन्द्रबिन्दुं निर्माय ह्यसायं वारद्वयं भूकम्पनस्य अनुभवः विहितोऽस्ति। प्रथमवारं सप्तकलोत्तराष्टवादने 10.5 परिमाणस्य भूकम्पनं दूरापन्नमस्तीति सुर्खेतवर्तिनी भूकम्प मापन केन्द्रस्य प्रमुख चिन्तन तिमलसेना असूचयत्। तथैव द्वितीयवारं तत्स्थानमेव केन्द्रबिन्दुं निर्माय 10.5 परिमाणस्य भूकम्पनं दूरापन्नमस्तीति प्रमुख तिमलसेना असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति थाईल्याण्ड देशस्य प्रथमं भ्रमणं ऐतिहासिकं, बिम्स्टेक संघटनस्य षष्ठं शिखर सम्मेलनं च सफलं सम्भूतमस्ति। ह्य थाईल्याण्ड देशस्य प्रिय बानु मयांग वर्तिनः नेपाली राजदूतावास कार्यालयस्य निरीक्षणं विदधानः प्रधानमन्त्री ओली द्विपक्षीयायाः वार्तायाः क्रमे देशस्य सम्बन्ध विस्ताराय बलं प्रदत्तमस्ति इति उक्तवान्। प्रधानमन्त्री ओली स्वकीयां भूमौ नेपाली राजदूतावासस्य सञ्चालनस्य विषयः प्रसन्नतायाः विषयोऽस्तीति चर्चयन् आगामिषु दिनेषु इतोऽपि अधिकस्य पूर्वाधारस्य विकासः कर्तव्यः इत्यत्र बलं प्रादात्। थाईल्याण्ड देशस्य कृते नेपाली राजदूतः धनबहादुर ओली दूतावासस्य स्वकीयायां भूमौ भवने विद्यमानेऽपि नवीनस्य भवनस्य निर्माणाय भूमेः विस्तारस्य आवश्यकता अस्ति इति अज्ञापयत्। ह्यसायं दूतावासेन प्रधानमन्त्रिणः सम्माने आयोजिते स्वागत समारोहे प्रधानमन्त्रिणः सहिता भ्रमणदलस्य सदस्यः थाईल्याण्ड वर्तिनः नेपाली समुदायस्य प्रतिनिधयश्च सहभागिनः आसन्। प्रधानमन्त्री ओली अद्य स्वदेशं प्रत्यागमिष्यति। प्रधानमन्त्रिणा केपी शर्मा ओलिना बिम्स्टेक शिखर सम्मेलनस्य प्रमुखे अन्तरवस्तुनि संयुक्तराष्ट्रसंघस्य स्थिर विकास लक्ष्ये च नेपालस्य समृद्धो नेपालः सुखिनो नेपालिनश्चेति आकांक्ष्या प्रतिध्वनिता भवतीति उक्तं वर्तते। थाईल्याण्ड देशस्य बैंकक नगरे आयोजितं बिम्स्टेक शिखर सम्मेलनं सम्बोधयन् प्रधानमन्त्री ओली जलवायु परिवर्तनेन समग्राया मानव जातेः अस्तित्वे संकटः उत्पन्नोऽस्तीति चर्चयन् हिमालयाः ऐसैक देशानां कृते जलस्रोतांसि विद्यन्ते इति अवदत्। पर्वतानां दूरवस्थां पर्वत महासागरयोः सम्बन्धं च स्पष्टयितुं नेपालेन आगामि मे मासे सगरमाथा संवादस्य प्रथम संस्करणम् आयोक्ष्यते इति प्रधानमन्त्री असूचयत्। शिखर सम्मेलने थाईल्याण्ड बांग्लादेश भूटान भारत म्यानमार श्रीलंका देशानां प्रधानमन्त्रिभि सम्बोधनं विहितमासीत्। ह्य एव बिम्स्टेक संघटनस्य षष्ठमं शिखर सम्मेलनं 30-2000 ख्रीष्टवर्षीयं बैंकका अवधारणापत्रं प्रस्तुत्य सम्पन्नमस्ति। व्यापार विस्तारं सम्पर्क सञ्जालं मानवीयां सुरक्षां च केन्द्रीकृत्य सम्मेलनेन समृद्धे औदार्यस्य च समाघोषणया सह बिम्स्टेक बैंकक दृष्ट्या सहितः षट्सूत्रात्मकः प्रस्तावः पारितीकृतोऽस्ति। प्रधानमन्त्रिणः केपी शर्मा ओलिनः भारतस्य प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य च मध्ये थाईल्याण्ड देशस्य बैंकक नगरे मेलवार्ता सम्भूता अस्ति। प्रधानमन्त्रिणा ओलिना भारतदेशस्य प्रधानमन्त्रिणा सह विहिते मेलने समीचीना वार्ता सम्भूता अस्ति इति उक्तमस्ति। बिम्स्टेक शिखर सम्मेलनस्य अनन्तरं थाईल्याण्ड देशस्य बैंकक वर्तिनी माडारिन ओरिएन्टल अतिथि सदने प्रधानमन्त्रिणः ओलिनः मोदिनश्च मध्ये मेलवार्ता सम्भूता आसीत्। प्रधानमन्त्रिणा ओलिना सह विहितायाः वार्तायाः अनन्तरं प्रधानमन्त्री मोदी नेपाल भारतयोः सम्बन्धस्य विविधेषु पक्षेषु विमर्शनं सम्भूतमस्ति इति सामाजिक सञ्जाले उल्लिखितवान् अस्ति। अद्य चैत्यदशैं नाम्ना प्रथितं चैत्राष्टमी पर्व दुर्गा भवान्याः पूजाराधन पुरस्सरं समायोज्यमानं वर्तते। एतदवसरे राजधान्याम् अन्यत्र च विद्यमानेषु विभिन्नेषु शक्तिपीठेषु मन्दिरेषु च शक्तिस्वरूपायाः भगवत्याः दर्शन पूजनार्थम् अद्य प्रत्युषादेव भक्तजनानां संवर्धो दृष्टिपथम् अवतरति। वर्षस्य वारद्वयं चैत्रे आश्विने च विधीयमानायाः दुर्गापूजायाः विशेष महत्वं शास्त्रेषु वर्णितमस्ति। शक्ति स्वरूपायाः भगवत्याः समाराधनेन सर्वविधात् संकटात् पारं प्राप्तुं शक्यते इति सप्तशती देवी भागवत कालिका पुराणादिषु उल्लिखितं वर्तते। नेपालः परापूर्वकालतः एव शक्तेः आराधकं राष्ट्रमस्ति इति हेतुः अस्माकं समाजे पर्वेदं महत्त्वम् आवहति। तुलसीपुरोच्च न्यायालयस्य बुटवल न्यायपीठेन राष्ट्रिय स्वतन्त्र दलस्य सभापतिं रवि लामिछानेभिदं रूपन्देही जनपदस्य सुप्रीम सहकारी संस्थायाः वित्तस्य वञ्चन संघटित अपराधयोः कारावासे प्रेषयितुम् आदिष्टमस्ति। एतत्पूर्वं रूपन्देही जनपद न्यायालयेन प्रदत्तम् आदेशं निरस्य तुलसीपुरोच्च न्यायालयस्य बुटवल न्यायपीठस्य न्यायाधीशस्य रमेश ढकालस्य स्वीकृति पराजुली इत्यस्या च संयुक्त न्यायपीठेन लामिछानेभिदं कारावासे प्रेषयितुम् आदिष्टमस्ति। अत्रान्तरे राष्ट्रिय स्वतन्त्र दलस्य सभापतिः लामिछाने प्रहरिणा निगृहीतोऽस्ति। प्रतिनिधिसभायाः अन्तर्गतायाः राज्यव्यवस्था सुशासन समित्या अतः परं तिन्कुने स्थाने तत्पार्श्ववर्तिषु स्थानेषु च केभ्य अपि प्रदर्शनाय अनुमतिं न प्रदातुं निर्दिष्टमस्ति। समितेः स्तनोपवेशेन तिन्कुने तत्पार्श्ववर्तिषु क्षेत्रेषु च प्रदर्शनं कर्तुम् अनुमतिं न प्रदातुं चैत्रमासस्य पञ्चदशे दिवसे राजावादिनां प्रदर्शने आपराधिक गतिविधिषु संलग्नान् सर्वान् दोषिणः दण्डयितुं विधेये परिधौ आनेतुम् एवं घटनाः न दुरावर्तयितुं गणतन्त्रस्य रक्षायै प्रवर्तितुं च प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयः गृहमन्त्रालयश्च निर्दिष्टौ स्तः। समित्या नेपालप्रहरिणः सशस्त्रप्रहरिणश्च श्रुतः पर्याप्तं विधातुं वित्तस्य व्यवस्थायै च निर्दिष्टमस्ति इति समितेः सभापतिः रामहरि खतिवड़ा असूचयत्। उपवेशे गृहमन्त्री रमेश लेखकः चैत्रस्य पञ्चदशे दिवसे तिन्कुने स्थाने घटितायाः घटनायाः निष्पक्षमनुसन्धानं विधाय दोषिणः दण्डयितुं सर्वकारः प्रतिबद्धो भूत्वा प्रवर्तितोऽस्ति इति असूचयत्।